आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचिका निधिः झा। अथ वार्ताः। अद्य प्रातः 11 वादने प्रधानमन्त्री नरेन्द्रमोदी आकाशवाण्या मन की बात इति कार्यक्रमावधौ स्वीयं मनोगतं देशस्य विदेशस्य च जनैः समं विनिमयीकरिष्यति। अयं हि अस्य लोकप्रिय कार्यक्रमस्य 32.1%-तमो भागो भविष्यति। अस्य प्रसारणं आकाशवाण्याः दूरदर्शनस्य च सर्वेषु केन्द्रेषु AIR न्यूज अन्तर्जालपुटे तथैव न्यूज ऑन AIR दूरभाषतन्त्रांशे भविष्यति। अपि च प्रधानमन्त्री कार्यालयस्य सूचना प्रसारण मन्त्रालयस्य च यूट्यूब वाहिन्यामपि एषः कार्यक्रमः साक्षात् प्रसारितो भविष्यति। हिन्दी प्रसारणानन्तरं आकाशवाणी प्रादेशिक भाषासु अपि कार्यक्रममिदं अनूद्य प्रसारयिष्यते। प्रशासनं विकसित भारतस्य निर्माणार्थम् आधुनिक आधारभूत संरचनासु अभूतपूर्व निवेशं करोति इति प्रधानमन्त्रिणा नरेन्द्रमोदिना प्रतिपादितम्। गौतमबुद्धनगर जनपदस्य जेवर क्षेत्रे नोएडा अन्ताराष्ट्रिय विमानपत्तनस्य प्रथमचरणीयोद्घाटनं विधाय श्रीमोदिना निगदितं यत् विगतैकादशवर्षेषु आधारभूतसंरचनायाः आयव्ययकं 6 गुणाधिकं प्रवर्धितम्। रेलवे विद्युतीकरणस्य विषये प्रधानमन्त्रिणा सूचितं यत् 14.2 लाख वर्षात् पूर्वं 25,000 किलोमीटर परिमितम् आसीत्, यत् अधुना 40,000 किलोमीटर मितादधिकं सञ्जातम्। साम्प्रतं प्रायः 100% ब्रॉडगेज संजालस्य विद्युतीकरणं पूर्णमभवत्।
2014 तक रेलवे में सिर्फ 20,000 किलोमीटर रूट का बिजलीकरण हुआ था, जबकि 2014 के बाद से 40,000 किलोमीटर से ज्यादा रेलवे ट्रैक का बिजलीकरण किया गया है। आज ब्रॉडगेज नेटवर्क का लगभग 100% बिजलीकरण हो चुका है।
प्रधानमन्त्रिणा विशेषतः उल्लेखितं यत् प्रथमवारं कश्मीर उपत्यका तथा च उत्तर पूर्व राज्यानां राजधान्याः रेल संजालस्य माध्यमेन सम्बद्धाः भवन्ति। विगतैकदशके जलपोताश्रय क्षमता 2 गुणाधिकं प्रवर्धिता। अन्तर्देशीय जलमार्गाणां संख्या च निरन्तरं वर्धमाना वर्तते। श्रीमोदिना प्रोक्तं यत् पश्चिम एशिया क्षेत्रे विगत मासतः प्रवृत्त युद्धेन बहवः देशाः खाद्यपदार्थानां तैलस्य वातेन्धनस्य उर्वरकाणाम् अभावं सम्मुखीकुर्वन्ति। श्रीमोदिना प्रतिपादितं यत् यद्यपि विश्वस्य प्रत्येकोऽपि देशः अनेन संकटेन सह युध्यते, तथापि भारतं स्वनागरिकाणां सामर्थ्येन पूर्णशक्त्या अस्य संकटस्य प्रतिकारार्थं सज्जो वर्तते। रक्षामन्त्री राजनाथसिंहः पश्चिमेशियाक्षेत्रस्य परिवर्तनशीलां स्थितिम् अवलोक्य सक्रिय समन्वित दूरगामि दृष्टिकोणस्य आवश्यकतायां बलम् अददात्। तेनोदीरितं यत् वर्तमाने संकटकाले अस्माकं सतर्कता अतीवावश्यकी वर्तते। अस्मिन् उपवेशने वित्तमन्त्री निर्मला सीतारमणः, पेट्रोलियम मंत्री हरदीप सिंह पुरी, स्वास्थ्य मंत्री जेपी नड्डा, जितेन्द्र सिंहः अपि च के राममोहन नायडू सदृशाः प्रमुखाः मंत्रिणः उपस्थिताः आसन्। जनसामान्यस्य अभूतपूर्व प्रतिक्रियया भारत प्रशासनेन भारत ट्राइब्स महोत्सवः आगामि मासस्य 5 दिनांक पर्यन्तं विस्तारितः। जनजातीय कार्य मन्त्रालयानुसारं एतस्य निर्णयस्य मुख्यमुद्देश्यं जनजातीय शिल्पीनां, उद्यमीनां तथा स्वयं सहायता समूहानां कृते आपण प्रवेशो वर्तते। 26th-2000 वर्षस्य खेलो इंडिया जनजातीय क्रीडायाः 4थे दिवसे भारोत्तोलन क्रीडायां निकिता 77 किलोग्राम वर्गे स्वर्ण पदकम् अवाप्तवती। तरण प्रतिस्पर्धायां ओडिशा राज्यं प्रथमं स्थानं भजते इति वार्ताः।